एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रतिनिधिसभायाः निर्वाचनस्य कृते केवलं पञ्चदिनानि एव अवशिष्टानि सन्ति। आगामिने बृहस्पतिवासरे सम्पत्स्यमानस्य प्रतिनिधिसभायाः निर्वाचनस्य कृते राजनीतिकदलैः प्रत्याशिभिश्च तीव्रगत्या प्रचार प्रसारौ क्रियमाणौ वर्तेते चेत् निर्वाचन आयोगेन च मतदानस्य कृते विधीयमानानि पूर्वकार्याणि अन्तिमचरणे प्राप्तानि सन्ति। निर्वाचनस्य कृते आवश्यकानि सर्वाण्यपि मतपत्राणि मुद्रितानि सन्ति चेत् सर्वेष् जनपदेष् निर्वाचन सामग्र्यः प्रापिताः सन्ति इति च निर्वाचन आयोगेन ज्ञापितम् वर्तते। निर्वाचनस्य सुरक्षायाः कृते सुरक्षा निकायानां सहयोगेन सर्वेष् जनपदेष् सुरक्षा व्यवस्था सुदृढा कृता अस्ति इति च आयोगेन ज्ञापितम् वर्तते। तराई मधेसक्षेत्रस्य सर्वेषां जनपदानां सीमावर्ति क्षेत्रेष् हिमालयीय सीमावर्ति क्षेत्रेष् च सुरक्षा व्यवस्था सुदृढा विहिता अस्ति। निर्वाचनस्य सुरक्षायै सीमावर्ति क्षेत्रेष् मतदानस्य द्वासप्तति घण्टाकालेभ्यः पूर्वतः एव सीम प्रवेशद्वाराणि पिधातुं निर्णीतम् वर्तते। अत्रैव निर्वाचन आयोगेन निर्वाचनाचार संहितायाः पूर्णरूपेण पालनं कृत्वा शान्तिपूर्णरूपेण निर्वाचनस्य प्रचार प्रसारौ कर्तुं राजनीतिकदलानि प्रत्याशिनश्च अनुरुद्धा वर्तन्ते। राजनीतिकदलानां प्रत्याशिनां वा प्रचार प्रसार कार्यस्य सूक्ष्मरूपेण अनुगमनं विधीयमानं वर्तते इति च आयोगेन ज्ञापितमस्ति। प्रतिनिधि सभा सदस्यानां निर्वाचनस्य कृते आराश्रम पञ्चषष्ट्युत्तरैकशते निर्वाचन क्षेत्रेष् द्वैलक्ष्य एकविंशति सहस्राणि च कर्मचारिणः संलग्नः वर्तन्ते। सप्तसप्ततिर्जनपदानां पञ्चषष्ट्युत्तरैकशतस्य निर्वाचन क्षेत्राणां त्रयोविंशतिः सहस्राणि एकं शतं द्वादश चेति केन्द्रेष् समानुपातिक निर्वाचन प्रणाल्या मतदानस्य कृते त्रिचत्वारिंशदुत्तरैकशते अस्थायी केन्द्रेष् च समग्रतः एतावत्यां संख्यायां कर्मचारिणः परिचालिताः सन्ति। निर्वाचन आयोगस्य सहायक प्रवक्ता प्रकाश नेउपाने पञ्चशताधिक मतदातृयुतेष् केन्द्रेष् नवानां कर्मचारिणां व्यवस्था, पञ्चशत संख्यायाः न्यून मतदातृयुतेष् केन्द्रेष् अष्टानां कर्मचारिणां व्यवस्था विहिता अस्ति इति असूचयत्। गृहमन्त्री ओमप्रकाश अर्यालः प्रतिनिधिसभा सदस्यानां निर्वाचने शान्ति सुरक्षायाः प्रत्याहुतिः कारिता अस्तित्यतः निर्भयेन मतदाने सहभागितां दर्शयितुं सर्वान् अनुरुणद्धि। वर्षावारा जनपदयोः आयोजिते निर्वाचनस्य सुरक्षायाः वर्तमानावस्था समाहोयाः समाधानञ्चेति विषयके विमर्शन कार्यक्रमे गृहमन्त्री अर्यालः निर्भयेन मतदानस्य वातावरणं निर्मितमस्ति इति असूचयत्। तदवसरे गृहमन्त्री अर्यालः विधेय उल्लंघनकर्तृन् जनाः सर्वकारेण विधेय परिधौ आनेष्यन्ति एवेति प्रतिबद्धताम् अभिव्यनक्। ह्येव दोलखा जनपदस्य वैतेश्वर ग्रामपालिका स्थितस्य मतदान केन्द्रस्य निरीक्षणस्य अनुगमनस्य च क्रमे गृहमन्त्री अर्यालः निर्भयेन शान्तिपूर्णरूपेण निर्वाचनस्य सम्पादनस्य वातावरणं निर्मातुं सम्बद्धाधिकारिणः निर्दिष्टवान्। ह्यः प्रातः गृहमन्त्रिणा अर्यालेन कार्यवाहक प्रमुख निर्वाचन आयुक्तेन रामप्रसाद भण्डारिणा च सहितेन समूहेन ग्रामपालिकायाः मतदान केन्द्राणाम् अनुगमनेन साकं निर्वाचनस्य सुरक्षायाः विषये विमर्शनं विहितमासीत्। ह्य एव निर्वाचनस्य पूर्वकार्यस्य विषये सूचनां ग्रहीतुम् ओखलढुंगा जनपदं प्राप्तः गृहमन्त्री अर्यालः सर्वत्र देशे शान्ति सुरक्षायाः व्यवस्था सुदृढा विहिता अस्तीत्यतः निर्भयेन मतदानं कर्तुं सर्वान् अनुरुणात्। काष्ठमण्डप जनपद प्रशासन कार्यालयेन फाल्गुन पूर्णिमायाः अवसरे शान्ति सुरक्षां निर्वाचनं च केन्द्रीकृत्य सार्वजनिक स्थलेषु जनसम्वर्धस्य मेला महोत्सवयोः मदिरायाः विक्रयणस्य वितरणस्य च कार्यं निषिद्धमस्ति। कार्यालयेन प्रकाशितायां सूचनायां धार्मिक सांस्कृतिक रूपेण स्वकीयेषु गृहेषु परिसरेषु च परिवार मित्रैस्सह होलिकोत्सवस्य आयोजने व्यवधानं न भविष्यति इति स्पष्टीकुर्वता मार्गेषु सार्वजनिक स्थलेषु अनावश्यकतया जनानां एकीभवनं कार्यक्रमस्य आयोजनं मदिरायाः सेवनं वितरणं च न कर्तुम् अनुरुद्धमस्ति। जनपद प्रशासन कार्यालयेन निर्वाचनं लक्ष्यीकृत्य क्रियान्वितायाः निर्वाचन आचार संहितायाः पालनाय बलं दत्तमस्ति। प्रतिनिधि सभा सदस्यानाम् आगामी निर्वाचनं लक्ष्यीकृत्य प्रसारितायाः सूचनायाः अनुसारेण मधेश प्रदेशे 81,100,000 शस्त्रास्त्राणि सर्वकाराय अर्पितानि वर्तन्ते। जनकपुरधामवर्तिनः मधेश प्रदेश प्रहरी कार्यालयस्य अनुसारेण निर्वाचनं स्वतन्त्रे भैरहिति च वातावरणे सम्पादयितुं प्रदेशस्य अन्तर्गते जनपद प्रशासन कार्यालयैः विहितायाः सूचनायाः पश्चात् अधुनावधि एतावन् मात्रा शस्त्रास्त्राणि प्राप्तानि वर्तन्ते। अष्टसु जनपदेषु विभिन्नाभिव्यक्तिभि सहस्रद्वयम् 31,500 च शस्त्रास्त्राणि अनुमतिं गृहीत्वा स्थापितानि सन्ति इति तथ्याङ्काः सन्तोऽपि अधुनावधि 81,100,000 शस्त्राणि प्राप्तानि सन्ति। अधुनावधि 50,000 च शस्त्राणि अर्पयितुम् अवशिष्टानि वर्तन्ते इति संसूचितं वर्तते। प्रधानमन्त्रिणा सुशीला कार्किणा सह नेपालस्य कृते चीनदेशस्य नवनियुक्तेन चीनदेशीय राजदूतेन चांग माओमिंग इत्यनेन शिष्टाचार मेलवार्ता विहिता अस्ति। तदवसरे प्रधानमन्त्री कार्की राजदूतेन माओमिंग इत्यनेन स्वकीयं दायित्वं कुशलरूपेण निर्वक्ष्यते, नेपाल चीन देशयोः मित्रवत् सम्बन्धः इतोऽपि उच्चतायां प्राप्स्यति इति च विश्वासं व्यक्तवती। तदवधौ प्रधानमन्त्री कार्की नेपालस्य निर्वाचन प्रक्रियायां चीनदेशात् प्राप्तां सदाशयतां प्रति कृतज्ञतां प्रकटयन्ती विकास निर्माणानां विभिन्नानां परियोजनानां सहकार्याणां च क्षेत्रेषु चीनदेशात् प्राप्तस्य सहयोगस्य कृते सर्वकारस्य नेपाली जनानां च पक्षतः धन्यवादान् च व्यक्तवती। जलवायु विज्ञान विभागेन निर्वाचनस्य समये अस्यैव फाल्गुन मासस्य 20-22 दिवसं यावत् उल्लेखनीय जलवायोः प्रणाल्या प्रभावः दृष्टो नास्ति इति ज्ञापितं वर्तते। ह्यसायं निर्वाचन विशेष जलवायु सम्बद्धां सूचनां प्रकाश्य विभागस्य जलवायु पूर्वानुमान महाशाखया अधुनावधि विहितानां तथ्याङ्कानां विश्लेषणस्य पूर्वानुमानस्य च आधारेण आसन्न निर्वाचने जलवायोः उल्लेखनीयः प्रभावो दृष्टो नास्ति इति संसूचितं वर्तते। ज्येष्ठ वर्ण महाविहार संरक्षण परियोजनायै संरक्षणस्य उत्कृष्टतायाः सबलदृष्टिकोणस्य च कृते युनेस्को इत्यनेन घोषितस्य गतख्रीष्टवर्षस्य एशिया पैसिफिक सांस्कृतिक सम्पद संरक्षण पुरस्कारस्य अन्तर्गतः अवार्ड ऑफ मेरिट इति सम्मानः प्रदत्तो वर्तते। परियोजनेयं 17,200 ख्रीष्टवर्षे भारत सर्वकारात् प्राप्तस्य भूकम्पस्य पश्चवर्तिनः सांस्कृतिक सम्पदः पुनर्निर्माणस्य अनुदानस्य अन्तर्गतं ललितपुरे क्रियान्वयनाय प्रचितासु 7 परियोजनासु एकास्ति। अस्याः परियोजनायाः निर्माणव्ययः 13,000,000 अष्टसप्ततिर्लक्षाणि च रूप्यकाणि आसन्।